उपेवदृक्षिवधिगिर्वदस्याम् च नो दधीतनाद्योगिरो मे अपान्नपादासुभेमाकुवित्स सुपेशस्करति जोषी षद्धि इमाम् स्वस्मै हृद आसुतष्टम् मन्त्रम् भोजेव कुविदस्य वेदत् अवान्नपादसूर्यस्य मह्ना विश्वान्यर्यो भुवानाजान समान्यायन्त्युपायन्त्यन्याः स मानमोर्वम् नद्यः पृणन्ति तमोसुजिम् सुच योदि दिवाम् समपान्नपादम् परितस्थुरापाः तमस्मे राजुपतयो युवानम् वर्मृज्यमानाः परीयन्त्यापाः स शुक्रेभिः शुक्वभिरेव तस्मे दीदाया निघ्मो हृदयन्निगप्सु अस्मे जिस्राम् यच्छा जनावीर्देवाय देवीर्दिधिषन्त्यन्नम् कृता इवो बहिप्रसंस्रे अप्सुतबीयूरम् धयति पूर्वसूना अश्वस्यात्मजनी भास्य ह्रस्वद्रुहो ऋषः संवृतः पायि सूरीन् आवासो पूर्षपरो अप्रभृष्यम् नारादजो विना सन्नानृतानि स्व आदवे सुदुघायस्य धेनुस्वधाम्बीपाय सुभन्नामत्ति स्व अपान्नवादूर्जयन्नत्स्वा अन्तर्वासुदेयाय विधते विभाति यो अप्सुचीनादेव्येन ऋतावादस्रवुर्भिया विभाति मयाजि धन्या भुवनान्यस्य प्रजायन्ते वीरुधश्च प्रजाभिः अपान्नपादाह्यस्थादुपस्थम् ब्रह्माणामूर्ध्वो विद्युतम् वसानः तस्य ज्येष्ठम् महिमानम् वहन्तीर्हिरण्यवर्णाः परीयन्ति जह्मेः हिरण्यरूपः स हिरण्यसन्दृगपान्नपात्से तु हिरण्यवर्णः हिरण्ययात्परियोनेर्निषद्या हिरण्यदादधत्यन्नामस्मै तदस्यानेकमुदचारुणामाभीच्यम् वर्धते न पूरवान्धते युभदयः स मिथ्या हिरण्यवर्णम् घृतमन्नामस्य अस्मैव हूनामभमाय सख्ये यज्ञैर्विधे मनमासा हविद्भिः संसारमाद्मिधिषामिभिर्मैर्दधाम्यन्नैः परीवन्दरिग्भिः सजीमृडाजन यत्ता सुगर्भम् सजीम् सुशर्धयति संव्रीहन्ति सो अपान्नपादनभिम्लादवर्णोऽन्नस्येवेह तन्वा विवेश अस्मिन् पदे परमेतस्थिवाम् स मद्भस्मभिर्विश्वहादिवांसम् आपोणत्रे हृतवन्नम् वहन्ति स्वयमद्गैः परिदीयन्ति यग्भिः अयाम् समग्ने सुक्षितिम् जनायाम् समुमगवद्भ्यः सुमृक्तिम् विश्वम् तद्भद्रम् यदवन्ति देवाः कर्तदेव विदधे सुवीराः